एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संघीय संसदः सदनद्वये प्रतिनिधिसभायाम् राष्ट्रियसभायाम् च आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितम् आयव्ययकविवरणम् आधृत्य अद्यतः विमर्शनम् प्रारभते। अर्थमन्त्रिणा वर्षमान पुन इत्यनेन अस्यैव ज्येष्ठस्य पञ्चदशे दिवसे संघीय संसद संयुक्तोपवेशे अष्टादश खर्वाणाम् षष्टेः अब्जानाम् त्रिंशतः कोटीनाम् च रूप्यकाणाम् वार्षिकम् आयव्ययक विवरणम् प्रस्तुतम् आसीत्। अर्थमन्त्रिणा वर्षमान पुन इत्यनेन प्रस्तुते आयव्ययक विवरणे संचालन पक्षे एकादश खर्वाः चत्वारिंशद् अब्जानी षड्षष्टिः कोटयश्च रूप्यकाणि, संचयनगत पक्षे खर्वत्रय द्वापञ्चाशत् अब्जानी पञ्चत्रिंशत् कोटयश्च रूप्यकाणि, वित्तीय व्यवस्थापन पक्षे खर्वत्रयम् सप्तषष्टिः अब्जानी अष्टादश कोटयश्च रूप्यकाणि विनियुक्तानि वर्तन्ते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति आगामिनः आर्थिक वर्षस्य आयव्ययके कतिचिद् न्यूनतायाम् विद्यमानतायाम् सत्यमपि तत्र व्यापकम् विमृश्य आयव्ययकम् पारिति कर्तव्यम्। नयाँ बानेश्वर वर्तिनी संसद भवने ह्य नेकपा एमाले संसदीय दलस्य उपवेशे अध्यक्ष ओली आयव्ययकम् सघनतया विमृश्य पारिति कर्तव्यमिति प्रावोचत्। अध्यक्ष ओली स्वस्य क्षेत्रस्य आयोजनानाम् कृते विनियोजितम् वित्तम् प्रस्ताविताः आयोजनाश्च आयव्ययके समाविष्टाः सन्ति नवेति निश्चेतुम् स्वस्य दलस्य सांसदान् परामृशत। अध्यक्ष ओली सर्वकारे सहभागिभिः दलैः विमृश्य सदने आयव्ययकम् प्रस्तुतम् अस्तीति असूचयत। उपवेशे दलस्य उपाध्यक्ष पूर्वार्थमन्त्री च सुरेन्द्र पाण्डे आयव्ययकस्य सबलान् दुर्बलान् च पक्षान् समीक्षितवान् आसीत्। सर्वकारेण सर्वकारीय स्वास्थ्य संस्थासु उपचाराय शल्यक्रियायै च दीर्घकालावधि प्रतीक्षणस्य अवस्थायाः अन्ताय अध्ययनम् कृत्वा प्रतिवेदनम् प्रस्तोतुम् उच्चस्तरीय समितिः संगठिता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन परह्यः शुक्रवासरे मन्त्रीस्तरीय निर्णयम् विधाय अतिरिक्त स्वास्थ्य सचिवस्य डाक्टर दीपेन्द्र रमण सिंहस्य संयोजकत्वे त्रिसदस्यीया समितिः संगठिता अस्ति। समितौ गुणस्तर मापन नियमन महाशाखाया प्रमुख मदन कुमार उपाध्यायः सदस्य, वरिष्ठ जनस्वास्थ्य प्रशासकः डाक्टर गुणनिधि शर्मा सदस्य सचिवश्च वर्तेते इति स्वास्थ्य मन्त्रालयेन ज्ञापितमस्ति। कृषि पशुपक्षी मन्त्री ज्वाला कुमारी शाह दुग्धोत्पादक कृषकेभ्य शीघ्रमेव प्रदेय वित्तस्य व्यवस्था विधास्यते इति समाश्वासयति। विश्व दुग्ध दिवसस्य उपलक्ष्ये ह्य झापा जनपदस्य मेचीनगरे आयोजिते कार्यक्रमे मन्त्री शाह सर्वकारीय स्वामित्वस्य दुग्ध विकास संस्थानेन नैज दुग्ध संकलन केन्द्रैश्च कृतस्य दुग्धस्य मूल्यं मासेभ्य प्रदत्तम् नास्तीति वेदनायाः प्राप्ते पश्चात् यथाशीघ्रम् अस्याः समस्यायाः समाधानाय सहयोक्ष्यते इति समाश्वासयत्। देशे दुग्धोत्पादनम् वर्धमानम् अस्तीति ज्ञापयन्ति मन्त्री शाह दुग्धस्य निर्याताय आवश्यकः प्रयासः विधीयमानोऽस्तीति च उदैरयत्। महिला बालबालिका ज्येष्ठ नागरिक मन्त्री भगवती चौधरी गदति सर्वकारः पुत्रैः पुत्रीभिश्च अर्जितस्य धनस्य 10% वित्तस्य पितृभ्यो दानस्य नीतिः आनेतुम् पूर्वकार्यम् विधीयमानो वर्तते। भक्तपुरे ह्य आयोजिते कार्यक्रमे मन्त्री चौधरी ज्येष्ठ नागरिकाधिनियमस्य ज्येष्ठ नागरिक नियमावल्याश्च संशोधनस्य पारिति भवनेन सहैव एवं नीतिः क्रियान्वेष्यते इति असूचयत्। मन्त्री चौधरी पित्रोः सुरक्षणम् संरक्षणम् च प्रत्येकम् पुत्रस्य पुत्र्याश्च दायित्वम् सदपि मातरः पितरश्च स्वस्यैव गृहात् अपहेलनस्य विषयः जायमानाः सन्तीत्यतः अधिनियमस्य पारिति भवनानन्तरम् स्वेन अर्जितस्य धनस्य 10% वित्तम् पितृभ्यः अवश्यम् दातव्यमिति व्यवस्था क्रियान्वयने आगमिष्यते इति अगदत्। मन्त्री चौधरी ज्येष्ठ नागरिकाणाम् अनुभवानाम् आदान प्रदानस्य स्थलस्य रूपेण सर्वासु पालिकासु ज्येष्ठ नागरिक दिवाकेन्द्रम् ज्येष्ठ नागरिक मेलन केन्द्रम् च निर्मातुम् पूर्वकार्यम् विधीयमानम् अस्तीति अज्ञापयत्। मुगु जनपदस्य मुगुम् कारमारोङ ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य कोइकी पाटन स्थाने यासा गुम्बा नामकस्य शक्तिवर्धक सदस्य संकलनाय गतानाम् त्रयाणाम् जनानाम् हिमालयीय क्षेत्रे प्राणवायोः न्यूनतायाः कारणात् श्वासावरोधेन मृत्युः अजायते इति मुगु जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक वीरेन्द्र थापा ज्ञापयति। प्राणवायोः न्यूनतायाः कारणात् प्रत्यागमनस्य क्रमे नीचैः आगमनस्य समये श्वासावरोधेन मार्गे एव एतेषां मृत्युरभूत् इति प्रहरिणा ज्ञापितमस्ति। मृतेषु मुगु जनपदस्य छायानाथ रारा नगरपालिकायाः द्वादशवडा क्षेत्रस्य एकोनत्रिंशत् वर्षीय मुन बहादुर बुढा एकविंशति वर्षीय सुमन बुढा राजबहादुर सावत च सन्तीति प्रेरणा ज्ञापितम् वर्तते। दाङ जनपदे झन्झावातेन गृहस्य भञ्जनात् एको जनः मृतोस्ति। ह्य सायं दुरापन्नेन झन्झावातेन गृहस्य भञ्जनात् तुलसीपुर उपमहानगरपालिकायाः द्वादशवडा क्षेत्रस्य रजेनी स्थानस्य सप्तति वर्षीय भगवान केसी मृत इति प्रेरणा ज्ञापितम् वर्तते। गृहस्य भञ्जनात् केसी इत्यस्य पत्नी पलायित्वा आत्मानं रक्षितुम् सफला सम्भूतेति प्रेरणा ज्ञापितमस्ति। प्रतिनिधि सभाया सभामुख देवराज घिमिरे कार्यपालिकया न्यायपालिकायाः व्यवस्थापिकायाश्च अभ्यन्तरे सहकार्यं विधेयम् इत्यत्र बलं ददाति। विराटनगरोच्च न्यायालयस्य बार एसोसिएशन संघ शाखया ह्य विराटनगरे आयोजितायाम् अन्तरक्रियायाम् सभामुख घिमिरे देशे विधेय शासनं संस्थापयितुं शासनतन्त्रस्य मध्ये समन्वयः आवश्यको स्थिति धारणाम् अभिव्यनक। सभामुख घिमिरे संसदः मुख्यं कार्यं विधेयनिर्माणम् अस्ति, परं गत षोडश मासेभ्य विधेयनिर्माणस्य अपेक्षयापि अन्यत् कार्यं जायमानं वर्तते इति अभासत। पूर्व राष्ट्रपति विद्यादेवी भण्डारी भासते विविधतायाम् एकता देशस्य परिचयो वर्तते। नेवा पत्रकार राष्ट्रिय दबुसंगेन ह्य ललितपुरे आयोजिते अन्तर्राष्ट्रिय मातृभाषा सम्मेलने पूर्व राष्ट्रपति भण्डारी बहुभाषिक बहुसांस्कृतिक विविधतायुते समाजे मातृभाषायाः पत्रकारितायाः महत्वपूर्णं योगदानं भवतीति अभासत। पूर्व राष्ट्रपति भण्डारी मातृभाषायाः पत्रकारितया सीमान्तकृत समुदायस्य भाषायाश्च संरक्षणं विधेयम् इति अवोचत। भारते ह्य लोकसभा निर्वाचनस्य सप्तमम् अन्तिम चरणस्य मतदान कार्यं सम्पन्नमस्ति। सायं षड्वादनं यावत् प्रतिशतं 10.34 अष्टापञ्चाशता अंकैः मतदानं विहितम् इति भारतीय निर्वाचन आयोगेन ज्ञापितं वर्तते। पश्चिम बंगाल राज्ये सर्वाधिकं प्रतिशतं 10.89 अंकैः मतदानं विहितमिति आयोगेन ज्ञापितं वर्तते। निर्वाचनस्य मतगणना परश्व जून मासस्य चतुर्थे दिवसे प्रारप्स्यते इति आयोगेन ज्ञापितमस्ति।